अथ सप्तदशोऽध्यायः अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः श्रीभगवान् उवाच त्रिविधा भवति श्रद्धा देहिनां सा स्वभावज सात्विकी राजसी चैव तामसी चेति तां शृणु यजन्ति सात्विकाः देवान् यक्ष रक्षांसि राजसाः प्रेतान् भूतगणांश्च ते यजन्ते तामसा जनाः अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः कर्षयन्तः शरीरस्थं भूतग्रामम् अचेतसः मां चैवान्तः शरीरस्थम् ताम् विद्धि आसुरनिश्चया आगारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः यज्ञः तपः तथा दानम् तेषाम् भेदमिमम् शृणु सत्त्वबलारोग्य सुखप्रीतिविवर्धनाः रस्याः स्निग्धाः स्थिराः हृद्याः ఆహారాః సాత్విక ప్రియాః. కట్వం లలవణాత్యుష్ణ తీక్ష్ణ రూక్ష విదాహీనః ఆకారాః రాజసస్యేష్టాః దుఃఖశోకామయ ప్రదాః. యాతయామం గతగసం ఊతి పర్యోషితం జయత్ ఉచ్ఛిష్టమపి చామేద్యం భోజనం తామస ప్రియం. అఫలాకాంక్షిభిః యజ్ఞో విధిదృష్టో యయిజ్యతే యష్టౌవ్యమేవేతి మనః సమాధాయ స సాత్వికః. సంధాయ సుఫలం దంభార్థమవిజయవయత్ ఇజ్యతే భరత శ్రేష్ఠ తం యజ్ఞం విద్ధి రాజసం. విధిహీనం అసృష్టాన్నం మంత్రహీనం అదక్షిణం శ్రద్ధావిరహితం యజ్ఞం తామసం పరిచక్ష్యతే. అనుద్వేగకరం వాక్యం సత్యం ప్రియహితం జయత్ స్వాధ్యాయాభ్యసనం చైవ వాంగ్మయం తప ఉచ్యతే. மௌனம் ஆத்ம விநிக்ரஹ பாவ சௌசுத்தி இத்யேதத் தபோமானசம் உச்யதே. ஷத்தயா பரயா தப்தம் தபஹ தத்ரிவிதம் நரைஹி அபராகாங்க்ஷிபிஹி யுக்தைஹி சாத்விகம் பரிசக்ஷதே. சத்கார மான பூஜார்த்தம் தபோ கம்பேன ஜெய்வயத் க்ரியதே ததிக ப்ரோக்தம் ராஜசம் சலம் அத்ருவம். மூடக்ராகேண ஆத்மனோ யத்பீடயா க்ரியதே தபஹ பரஸ்யோத்சாதனார்த்தம் வா தத்தாமசம் உதாகுதம். தாதவ்யம் இதி யத்தானம் தீயதே அனுபகாரிணே தேசே காலே ச பாத்ரே ச தத்தானம் சாத்விகம் ஸ்மிருதம். யத்து ப்ரத்யுபகாரார்த்தம் ஃபலம் உத்திஷ்ய வா புனக தீயதே ச பரிக்ருஷ்டம் தத்தானம் ராஜசம் ஸ்மிருதம். அசத்கிருதம் அவஜாதம் தத்தாமசம் உதாகிருதம். ஓம் தத்சதிதி நிர்தேஷோ ப்ரஹ்மணஸ்த்ரிவிதஸ்மிருதஃ ப்ராஹ்மணாஸ்தேன வேதாஶ்ச யஜ்ஞாஶ்ச விஹிதாஃ புரா. தஸ்மாதோ மித்யுதா ಜಾಗೃತ್ಯ ಯಜ್ಞ ದಾನ ತಪ ಕ್ರಿಯಾ ಪ್ರವರ್ತಂತೆ ವಿಧಾನೋಕ್ತಃ ಸತತಂ ಬ್ರಹ್ಮವಾದಿನಾಂ. ತದಿತಿ ಅನಭಿಸಂಧಾಯ ಫಲಂ ಯಜ್ಞತಪಕ್ರಿಯಾಃ ದಾನಕ್ರಿಯಾಶ್ಚ ವಿವಿಧಾಃ ಕ್ರಿಯಂತೆ ಮೋಕ್ಷಕಾಂಕ್ಷಿಭಿಃ. ಸದಿತಿ ಶ್ರೀಮದ್ಭಗವದ್ಗೀತಾಸು ಉಪನಿಷತ್ಸು ಬ್ರಹ್ಮವಿದ್ಯಾಯಾಂ ಯೋಗಶಾಸ್ತ್ರೇ ಶ್ರೀಕೃಷ್ಣಾರ್ಜುನ ಸಂವಾದೆ ಶ್ರದ್ಧಾತ್ರಯ ವಿಭಾಗ ಯೋಗೋ ನಾಮ ಸಪ್ತದಶೋಧ್ಯಾಯಕಃ.